इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुरुषोत्तम शर्मा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य गुजरातस्य प्रभासपाटनस्थिते सोमनाथमन्दिरे शौर्ययात्रायाम् उपस्थास्यति। इयं यात्रा तेभ्यः कृतज्ञतां ज्ञापयति यैः सोमनाथमन्दिरस्य रक्षार्थं स्वकीयं सर्वस्वं समर्पितम्। शौर्ययात्रा कार्यक्रमस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी सोमनाथमन्दिरे पूजां विधाय एकां जनसभां सम्बोधयिष्यति। श्रीमोदी अद्य राजकोटम् उपेत्य द्विदिवसीय जीवन्त गुजरात क्षेत्रीय सम्मेलनस्य उद्घाटनं करिष्यति। अत्रावसरे गुजरातस्य मुख्यमंत्री भूपेन्द्र पटेलः, उपमुख्यमंत्री हर्ष सांघवी च उपस्थितौ भविष्यतः। केन्द्रीय गृह सहकारिता मंत्री अमितशाहः अद्य केरलस्य राजधान्यां तिरुवनन्तनगर पुर्यां सम्प्राप्तः। विमानपत्तने नवनिर्वाचितः सदस्यः वीवीकेराजेशः, केरलस्य भाजपादलाध्यक्षः राजीव चन्द्रशेखरः, अन्ये च वरिष्ठ भाजपा नेतारः गृहमन्त्रिणः स्वागतम् अकुर्वन्। यात्रावधौ गृहमन्त्री श्रीपद्मनाभस्वामी मन्दिरे पूजार्चनां विधास्यति। मध्याह्ने गृहमन्त्री स्थानीय निकाय निर्वाचनेषु चयनितेभ्यः भाजपा प्रत्याशिभिः सह मेलनं करिष्यति। गृहमन्त्री अमितशाहः केरल कौमुदी कार्यक्रमे अपि उपस्थास्यति। गृहमन्त्रिणा अमितशाहेन उक्तं यत् कस्यापि राज्यस्य विकासे विधिव्यवस्थायाः महत्वपूर्णा भूमिका भवति। तेनोक्तं यत् भद्रतर विधिव्यवस्थायुतानि राज्यानि निवेशकान् आकर्षयन्ति। गतदिने जयपुरनगरे आरक्षिसहायकानां नियुक्तिसमारोहे गृहमन्त्री अवोचत् यत् सत्यपि बहूनि समाह्वानानि राजस्थानप्रशासनेन विधिव्यवस्थां विशेष अवधानं प्रदत्तम्। प्रवर्तननिदेशालयेन गतदिने आईपीएसी इति प्रकरणे सर्वोच्चन्यायालयम् उपेत्य शीघ्रतया कार्याचरणस्य अनुरोधः कृतः। अत्रान्तरे पश्चिमबंगालप्रशासनेन सर्वोच्चन्यायालये प्रतिभूतिं प्रस्तूय उक्तं यत् तदीय पक्षं विना प्रकरणेऽस्मिन् आदेशं न यच्छेत् इति। अवधेयं यत् इतः प्राक् गुरुवासरे प्रवर्तननिदेशालयेन पश्चिमबंगालस्य मुख्यमन्त्रिणं ममता बनर्जिनं विरुध्य कोलकाता उच्चन्यायालये केन्द्रीयान्वीक्षणाभिकरणद्वारा अन्वीक्षणस्य याचना प्रस्तुता आसीत्। न्यायालयेन च अस्य मासस्य 14 दिनांकं यावत् प्रकरणेऽस्मिन् वादश्रवणं निराकृतम्। केन्द्रीय वित्तमन्त्री निर्मला सीतारमणः गतदिने नवदिल्ल्याम् ऐषमः वित्त संकल्पना सत्रात् पूर्वं चर्चायै राज्यैः केन्द्रशासित प्रदेशैः च साकम् उपवेशनं कृतवती। अस्मिन् उपवेशने नैकेषां राज्यानां केन्द्रशासित प्रदेशानां च मुख्यमन्त्रिणः वित्तमन्त्रिणः च उपस्थिताः आसन्। उपवेशनस्य अनन्तरं वित्तमन्त्रालयेन उक्तं यत् प्रतिभागिभिः वित्तसंकल्पनापत्रस्य विषये सम्मर्शाः प्रदत्ताः। अवधेयं यत् वित्तसंकल्पनासत्रम् अस्य मासस्य 28 दिनांके आरप्स्यते। क्रीडायुवप्रकरणानां मन्त्री डॉ. मनसुख माण्डविया अवदत् यत् ऐषमो विकसित भारत युवनेत्री संवाद कार्यक्रमः विशेषो वर्तते। अयं कार्यक्रमः युवभ्यः देशस्य विकासाय तेषाम् अभिमतं प्रस्तोतुम् अवसरं प्रदास्यति। कार्यक्रमः यूनः अग्रे आगत्य नेतृत्वं कर्तुं समाह्वानानि सम्मुखीकर्तुं देशस्य भविष्यनिर्माण रूपरेखां च निर्मातुं योगदानाय सशक्तं करिष्यति। तेनोक्तं यत् अस्मिन् कार्यक्रमे सम्पूर्णदेशस्य युवनेतारः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह विकसित भारतस्य दृष्टिकोणे विचारविमर्शं करिष्यन्ति। चतुर्दिवसीयः अयं कार्यक्रमः सोमवासरे जनवरी 2 पूर्णो भविष्यति। भारत न्यूजीलैण्ड दलयोः 3 एकदिवसीय क्रिकेट स्पर्धा मालिका अद्य आरभते। श्रृंखलायाः प्रथमा स्पर्धा अद्य गुजरातस्य वडोदरा नगरे क्रीडिष्यति। भारतीय समयानुसारेण इयं स्पर्धा मध्याह्ने 1:30 आरप्स्यते। इति वार्ताः।